ओम नमो भगवते वासुदेवाय। अथ षड्विंशोऽध्यायः। श्रीशुक उवाच, एवं विधानि कर्माणि गोपाः कृष्णस्य वीक्षते, अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः। बालकस्य यदेतानि कर्माणि अत्यद्भुतानि वै, कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम्। यः सप्तहायनो बालः करेणैकेन लीलया, कथम् बिभ्रद्गिरिवरम् पुष्करम् गजराडिव, तोकेनामीलिताक्षेण पूतनाया महौजसः। पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः, हिन्वतोऽथ शयानस्य मास्यस्य चरणाबुदक्, अनोपतत् विपर्यस्तम् रुदतः प्रपदाहतम्। एकहायन आसीनो ह्रियमाणो विहाय सा, दैत्येन यस्त्रिणा वर्तमहन् कण्ठग्रहातुरम्। क्वचिद्धैयङ्गवस्तैन्ये मात्राबद्ध उलूखले, गच्छन्नर्जुनयोर्मध्ये बाहुभ्याम् तावपातयत्। वने सञ्चारयन् वत्सान् स रामो बालकैर्वृतः, हन्तु कामम्बकम् दोर्भ्याम् मुखतोरिमपाटयत्। वत्से सुवत्सरूपेण प्रविशन्तम् जिघांसया, हत्वान्यपातयत्तेन कपित्थानि च लीलया। हत्वा रासवदैतेयम् तद्बन्धूंश्च बलान्वितः, चक्रे तालवनम् क्षेमम् परिपक्वफलान्वितम्। प्रलम्बम् घातयित्वोग्रम् बलेन बलशालिना, अमोचयत् व्रजपशून् गोपांश्चारण्यवन्नितः। आशीविशतमाहीन्द्रम् दमित्वा विमदम् हृदात्, प्रसह्योद्वास्य यमुनाम् चक्रे सौ निर्विशोदकाम्। दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषाम् नो व्रजौकसाम्। नन्दते तनये स्मासु तस्याप्युत्पत्तिकः कथम्, क्व सप्तहायनो बालः क्व महाद्रिविधारणम्। ततो नो जायते शङ्का व्रजनाथ तवात्मजे। नन्द उवाच, श्रूयताम् मे वचो गोपाव्येतु शङ्का च वोर्भके। एनम् कुमारमुद्दिश्य गर्गो मे यदुवाचः, वर्णाश्रयः किलास्यासन् गृह्णतोऽनु युगम् तनूः। शुक्लो रक्तस्तथापि त इदानीम् कृष्णताम् गतः, प्रागयम् वसुदेवस्य क्वचिज्जातस्तवात्मजः। वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते, बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहम् वेद नो जनाः, एषवः श्रेय आधास्यद्गोपगोकुलनन्दनः। अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ, पुराणेन व्रजपते साधवो दस्युपीडिताः, अराजके रक्ष्यमाणा जिज्ञुर्दस्योन् समेधिताः। य एतस्मिन् महाभागाः प्रीतिम् कुर्वन्ति मानवाः, नारयोऽभिभवन्त्येतान् विष्णुपक्षा निवासुराः। तस्मान्नन्दकुमारोऽयम् नारायण समो गुणैः, श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः। इत्यद्धामाम् समादिश्य गर्गे च स्वगृहम् गते, मन्ये नारायणस्यांशम् कृष्णमक्लिष्टकारिणम्। इति नन्दवचः श्रुत्वा गर्गगीतम् व्रजौकसः, दृष्टश्रुतानुभावास्ते कृष्णस्यामित तेजसः। मुदितानन्दमानर्चुः कृष्णम् च गतविस्मयाः। देवे वर्षति यज्ञविप्लवरुषा, वज्रास्म परशा निलैः, सीदत्पालपशुस्त्रियात्मशरणम् दृष्ट्वानुकम्प्युत्स्मयन्। उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्द्रम् यथा, बिभ्रद्गोष्ठमपान्महेन्द्रमदभित् प्रियान्न इन्द्रो गवाम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।